एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री शेरबहादुर देउवा प्रतिवेशी राष्ट्रस्य भारतस्य त्रिदिवसीयम् औपचारिक भ्रमणं प्रपूर्य गतदिने स्वदेशं प्रत्यावृतो वर्तते। भारत भ्रमणस्य क्रमे जनकपुर जयनगर कुर्था रेलयान शुभारम्भस्य नेपाल भारतोर्ज उत्पादन विकास विस्ताराणां च विषयेषु महत्वपूर्ण संविदा सम्पन्नेति परराष्ट्रमन्त्री डाक्टर नारायण खड्का विमानस्थले आयोजिते पत्रकार सम्मेलने अज्ञापयत्। तत्पूर्वं भारतस्य त्रिदिवसीयस्य औपचारिक भ्रमणस्य क्रमे प्रधानमन्त्री शेरबहादुर देउवा धार्मिक नगर्यां वाराणस्यां ललिताघाट पशुपतिनाथ मन्दिर परिसरे निर्माच्यमानस्य वृद्धाश्रमस्य भूमिपूजनेन सह शिलान्यासं व्यदधात्। तदवसरे उत्तर प्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथोऽपि उपस्थितः आसीत्। नेपाल सर्वकारेण वृद्धाश्रमाय कोटिः रूप्यकाणि विनियोजितानि सन्ति। नेपालात् तीर्थयात्रायै तत्र जिगमिषूणां जनानां कृते पञ्चत्रिंशतः कोष्ठानां भवनस्य वृद्धाश्रम निर्मीयमाणोऽस्ति। प्रधानमन्त्रिण देउवाविधस्य सम्माने उत्तरप्रदेशस्य मुख्यमन्त्री आदित्यनाथ ह्यो दिवाभोजम् आयोजयत। तत्पूर्वम् अनयोर्मध्ये पारस्परिक हिताभिरुच्योर् विविध विषयेषु विमृष्टम् आसीत्। राष्ट्रपतिः विद्यादेवी भण्डारी राष्ट्रेण विपुल धनराशि शिक्षाक्षेत्रे व्ययीकृतम् अस्तीति हेतोः शिक्षाक्षेत्रम् उपलब्धिमूलकम् विधातुम् बलम् ददाति। ह्यः सिन्धुपाल्चोक जनपदस्य पाँचपोखरी थाङपाल ग्रामपालिकायाः चतुर्थवडा क्षेत्रवर्तिना थाङपाल भ्याली माध्यमिक विद्यालयस्य नवनिर्मितम् भवनम् उद्घाटयन्ती राष्ट्रपतिः भण्डारी अवदत् भूकम्पस्य जलविप्लवस्य कोरोना संक्रमणस्य च समयेऽपि भवनम् निर्मितम् अतः परम् पठन पाठनमपि गुणस्तरीयम् विधातव्यम्। आविश्वम् जलवायु परिवर्तनस्य संकटम् वर्धमानम् अस्तीति हेतोः एतस्य प्रभावः नेपालस्य हिमश्रृंखलासु उच्चैः पर्वतीय शिखरेषु च दृष्टोऽस्तीत्यतः जलवायोः अनुकूलन योजनाम् निर्माय अग्रे वर्धितुम् बलम् अदात्। कार्यक्रमे शिक्षा विज्ञान प्रविधि मन्त्री देवेन्द्र पौडेलः अगदत् सर्वकारीय विद्यालयानाम् भौतिक शैक्षिक रूपेण च विकसयितुम् सर्वकारः प्रतिबद्धोऽस्तीत्यतः गुणस्तरीय शिक्षायां बलम् प्रदातव्यम्। सर्वकारेण शिलातैलीय पदार्थानां दैनिकोपभोग्य वस्तूनां च सहज रूपेण उपलब्धतायै सम्बद्ध निकायाः व्यवसायिनश्च निर्दिष्टाः सन्ति। गृहमन्त्रिणा बालकृष्ण खाण इत्यनेन अत्यावश्यक वस्तूनां मूल्यवृद्धिं न कर्तुं क्रय विक्रयणं न रोद्धुं शिलातैलीय पदार्थानां सहजोपलब्धतायै च निर्दिष्टं वर्तते। गृहमन्त्रालयस्य प्रवक्तुः फणीन्द्रमणि पोखरेलस्य अनुसारेण गृहमन्त्रिणा खाण इत्यनेन गृहप्रवृत्तीनां सम्बद्ध मन्त्रालयानां सचिवाः निर्दिष्टाः सन्ति। एतदनुरूपं गृहमन्त्रालयेन परिपत्रं विधाय प्रतिवेदनं प्रेषयितुं सर्वे प्रमुखजनपदाधिकारिणा निर्दिष्टाश्च सन्ति। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की कथयति रेडियो नेपालस्य यथाशीघ्रं सार्वजनिक प्रसारण सेवायं रूपान्तरणं विधास्यते। रेडियो नेपालस्य द्वासप्ततितमस्य वार्षिकोत्सवस्य अवसरे गतदिने सिंहप्रासादे आयोजिते कार्यक्रमे सर्वकारस्य प्रवक्ता च मन्त्री कार्की रेडियो नेपालस्य सार्वजनिक प्रसारण सेवायं रूपान्तरणाय विधिगता संसदीया च प्रक्रिया शीघ्रं समाधानम् अवाप्स्यतीति विश्वासम् अभिव्यनक। मन्त्री कार्की परामृशत् रेडियो नेपालेन सुदूर भूभागेषु स्वसेवायाः उपागमनं विस्तार्य ग्रामीण वसतीनां एतस्याः समस्याः सम्भावना च सम्बोधनीयाः। मन्त्री कार्की प्रावोचत् कला साहित्य गीत संगीत संस्कृतीनां संरक्षणाय रेडियो नेपालस्य भूमिका अतुलनीया वर्तते। संचार सूचना प्रविधि मन्त्रालयस्य सचिव रेडियो नेपाल संचालक समितेः अध्यक्षश्च डाक्टर वैकुण्ठ अरियालः सूचना प्रविधेः विकासेन सह रेडियो नेपालस्य सकल जनतायाः उपागमने प्रापणत्वेन कार्ययोजनां निर्मातुं बलं प्रादात्। रेडियो नेपालस्य कार्यकारी निर्देशकः बुद्धिबहादुर केसी रेडियो नेपालस्य प्रसारण विस्तारम् आगामी दिनेषु इतोपि प्रवर्त्य अतिरिक्तम् स्तरीयम् दायित्वपूर्णम् समाजोपयोगी च विधास्यते इति चर्चयन् अभासत। रेडियो नेपालेन कार्यक्रमेषु प्रसारणस्य गुणस्तरे च ध्यानम् प्रदत्तम् वर्तते। रेडियो नेपालस्य उपनिर्देशक संचालक समितेः सदस्यश्च टीका प्रसाद भण्डारी अगदत रेडियो नेपाल समाचाराणाम कार्यक्रमाणाम च स्तरवृद्धय गीत संगीतयो संरक्षणाय संवर्धनाय च निरन्तरम सक्रिय वर्तते। समारोह रेडियो नेपालस्य निर्देशक खगेन्द्र खत्री अकथयत परिवर्तन से कृते समाह्वान प्रतिकृत्य सेवाया गुणस्तर वर्धयित् अशेष कर्मचारिण तत्परा सन्ति। वार्षिकोत्सव समारोह रेडियो नेपालेन वरिष्ठ गीतकार किरण खरेल वरिष्ठ संगीतकार दीपक जंगमश्च प्रति व्यक्ति एक पञ्चाशत सहस्राणाम रूप्यकाणाम राशिना प्रमाण पत्रेण च सृष्टि सम्मानेन सम्मानित स्तः। एवमेव गीत प्रतियोगिताया गायक संगीतकार रचनाकार रेडियो नेपालस्य उत्कृष्टा दीर्घावधि यावत् सेवां कुर्वन्तश्च कर्मचारिणः पुरस्कृताः सम्मानिताश्च सन्ति। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमला दाहाल प्रचण्ड कथयति स्थानीय स्तराणाम् न केवलम् आसन्न निर्वाचनम् यावत् न अपितु संसदीय निर्वाचनम् यावत् प्रतिगमनस्य विरूद्धे पञ्चदलीय गठबन्धनम् स्थास्यति। मौतरी जनपदस्य वर्दिवास नगरपालिकायाः एकादश वडा क्षेत्रस्य खैरमारा स्थानस्य सुन्दर वसतिवर्तिनः निर्मल लामा बहुप्राविधिक शिक्षालयस्य नवनिर्मितम् भवनम् इह उद्घाटयन् अध्यक्ष प्रचण्डः अवोचत् पञ्चदलीय गठबन्धनम् न विघटयिष्यते। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपाल वदति आगामिनि निर्वाचने वामपन्थी लोकतान्त्रिक शक्तिविषु मिलित्वा चलितुम् सहमति धृता वर्तते। समाजवादी प्रेस संगठनेन ह्य धनगढ़ी स्थाने आयोजिते पत्रकार सम्मेलने अध्यक्षो नेपाल अगदत् समान विजय प्राप्ते मान्यताया आधारेण वीतया सहमत्य अनुकूल सन्देश प्रवाहितो वर्तते। नेपाली कांग्रेस दलस्य केन्द्रीय सदस्य डाक्टर शेखर कोइराला भासते स्थानीय स्तराणाम निर्वाचने गठबन्धनस्य अधिकार जनपदे एव नीतोस्ति। नेपाली कांग्रेस दलस्य तनहु शाखया यह आयोजिते मेलन कार्यक्रमे डाक्टर कोइराला भासत स्थानीय आवश्यकताया औचित्यस्य च आधारेण गठबन्धनस्य अधिकार जनपदेभ्य प्रदत्तोस्ति। सर्वोच्च न्यायालय नेकपा एमाले दलस्य अध्यक्षेण केपी शर्मा ओलिना माधव कुमार नेपालेन सहितानाम् चतुर्दशानाम् सांसदानाम् विरूद्धे पञ्जीकारितस्य आदेशावियाचन निवेदनस्य श्रवणम् अस्यैव चैत्रस्य सप्तविंश दिवसाय सारितमस्ति। न्यायाधीशयोः अनिल सिंहाविदस्य नहकुल सुवेदिनश्च संयुक्त न्यायपीठे प्रस्तुते निर्धारिताः सत्यपि न्यायाधीशेन सुवेदिना विलोकनस्य अशक्यत्वात् न्यायिक प्रकरणस्य श्रवणं सारितमस्ति। एतत्पूर्व सांसदस्य सोमप्रसाद पाण्डेविदस्य न्यायिक प्रकरणे आत्मना अन्तरिमादेश प्रदत्तः एकीकृत समाजवादी दलस्य विषये धारणा च व्यक्त्यति कारणेन अतिरिक्त श्रवणम् आत्मना न विधीयते इति न्यायाधीशेन सुवेदिना निर्णयनस्य पश्चात् यः श्रवणम् सप्तविंश दिवसाय सारितमस्ति। सर्वकारेण अन्तरप्रदेश स्तरीयाणाम् दीर्घदूरीयाः यात्रीवाहकानाम् वस्तुवाहकानाम् च साधनानाम् यातायात शुल्कम् प्रतिशतम् दशतः पञ्चदशभि वर्धितमस्ति। शिलातैलीय पदार्थानाम् नैरन्तर्येण मूल्यवृद्धेः कारणात् सर्वकारेण स्वचालित यातायात शुल्क निर्धारणस्य अवधारणायाः अनुरूपम् यातायात शुल्कस्य वर्धनाय सैद्धान्तिकी सहमतिः प्रदत्तास्ति। यातायात व्यवस्था विभागस्य अनुसारेण यात्रीवाहक साधनानाम् यातायात शुल्कम् प्रतिशतम् दशभि पर्वतीय मार्गेषु सञ्चाल्यमानानां वस्तुवाहकयानानां शुल्कं प्रतिदशं प्रतिशतं त्रयोदशभिः तराई क्षेत्रे सञ्चाल्यमानानां वस्तुवाहकयानानां शुल्कं च प्रतिशतं पञ्चदशभिः वर्धितमस्ति। सिन्धुपाल्चोक जनपदे पाचनेन्धनस्य विस्फोटनस्य कारणेन ह्यो बालिकात्रयम् मृतम् वर्तते। बारविसे नगरपालिकायाः अष्टमवडा क्षेत्रस्य मानेश्वरावर्तिनि लामाटोलस्थाने पाचनेन्धनस्य विस्फोटनस्य कारणेन दुरापन्नेन अग्निदाहेन तिस्रः बालबालिकाः मृताः सन्ति। इति समाचाराः।